इन्द्राजहिद्यौरसुरो अनम् रतेन्द्राजमहि पृथिवीपरीमभिर्जुम्नसा तापरीमभिः इन्द्रम् विश्वे सजोषसो देवासो दधिरे पुरः इन्द्राज विश्वासमनानि मानुषा रातानि सन्तु मानुषा विश्वेषु हित्वा समनेषु तुञ्जते समानमेकम् वृषमण्यभः पृथक् स्वः सनिष्यभः पृथक् तन्त्वानाभन्नपर्षणिम् शोषस्य धुरि धीमहि इन्द्रन्न यज्ञैश्चितयन्त आजभस्त्वमेभिरिन्द्रमाजवाः वित्त्वा ततस्रे मिथुना अभस्य वो व्रजस्य साता गव्यस्य निसृजः सक्षन्त इन्द्रनिसृजाः यद्गव्यन्ताद्वाजना स्वा अर्यन्ता समोहसि आविष्करि क्रद्वृषणम् स चाभुवम् वज्रमिन्द्र स चाभुवम् विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्रशारदिरवातिरः स सहानो अवातिरः शासस्तमिन्द्रमर्त्यमयज्युंशवसस्पते महीममुष्णाः पृथिवीमिमा अपोमन्दसान इमा अपः आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुषिजो यदा विथ सखी यतो यदा विथ चकर्थकारमेभ्यः प्रदना सुप्रबन्तवे ते अञ्जामञ्जान्नद्यम् सरिष्णत श्रवस्यन्तः सरिष्णत उत नो अस्या उषसो जुषेतह्या अर्कस्य बोधि हविषो हवीमभिस्वर्षाता हवीमभिः यदिन्द्रहन्तवे मृधो वृषा वज्रिञ्चिकेतसि आमे अस्य बेधसो न बीजसो मन्मश्रुधि न बीजसः त्वन्तमिन्द्रमावृधानो अस्मजुरमित्रजन्तम् तु विजातमर्त्यम् वज्रेण शूरमर्त्यम् जहि यो नो अघायति शृणुष्व शुश्रवस्तमः रिष्टन्नजामन्नपभूतुर्मतिर्विश्वापभूतुर्मतिः